नमस्सर्वेभ्यः. प्रथमः मङ्गलाचरणश्लोकः. ॐ गुणातीतोऽपि सः त्रिगुणसतिपत्रक्षरमय त्रिमूर्तिर्यस्सर्गस्थितिविलयकर्माणि तनुते कृपापारावार परमगति एकस्मै जगतां नमस्तस्मै कस्मै चिदमितमहिम्ने पुरविदे. अस्तु, तत्र गतवर्गे केचन प्रश्नाः आगताः आसन्, तर्हि किञ्चिदिव प्रश्नानां तत्र समाधानं किम् इति पश्यामः. यथा यत् लब्धं, यत्किमपि अवगतं, तदेव स्वीकृत्य इदानीं पश्यामः समाधानं किं. तत्र प्रश्नाः के आसन् इत्युक्ते, अस्माकम् इन्द्रियलक्षणम् अस्माभिः यत् कृतम्, इन्द्रियलक्षणं किमासीत् इत्युक्ते, शब्देतरोद्भुतविशेषगुण अनाश्रयत्वे सति ज्ञानकारणमनसंयोगाश्रयत्वम् इन्द्रियस्य लक्षणम् इति कृतमासीत्. तत्र दलद्वयं वर्तते, विशेषणदलं विशेष्यदलं च. शब्देतरोद्भुतविशेषगुणानाश्रयत्वे इति स्थूलरूपेण पुनः पश्यामः सति ज्ञानकारणमनसंयोगाश्रयत्वम् इन्द्रियस्य लक्षणम् इति उक्तं. तर्हि अत्र मनसंयोगाश्रयत्वम् इत्येतावन्मात्र स्वीकुर्मः चेत् तत्र आत्मनि अतिव्याप्तं भवति इति कृत्वा तत्र विशेषगुणानाम् इदानीं स्वीकारः. तर्हि विशेषगुण अनाश्रयत्वे सति इति विशेषणदलस्य उपादाने पुनः किं भवति इत्युक्ते, इन्द्रियस्य एव अव्याप्तिः भवति. कुतः इति चेत् इन्द्रियेषु विशेषगुणाः सन्ति इति कृत्वा. तर्हि तत्र इतोपि परिष्कारः करणीयः. तर्हि उद्भूतविशेषगुण अनाश्रयत्वे सति इति उक्तम्. उद्भूतविशेषगुणाः इन्द्रियेषु प्रायः न सन्ति, चतुर्षु इन्द्रियेषु तु न सन्ति एव, परन्तु तत्र श्रोत्रेन्द्रिये उद्भूतविशेषगुणः शब्दः वर्तते इति कृत्वा पुनः शब्दे अव्याप्तिः भवति इति कृत्वा इदानीं शब्देतर उद्भूतविशेषगुणनाश्रयत्वे सति इति उक्तम्. तर्हि तत्र प्रश्नः आगतः आसीत्, शब्दः सर्वदैव उद्भूतः भवति वा अनुद्भूतोपि शब्दः वर्तते वा इति प्रश्नः आगतः आसीत्. अस्माभिः चिन्तितमासीत् शब्दः उद्भूतः एव भवति इति चिन्तितमासीत्, तदेव सम्यक् भाति. नैयायिकानां चिन्तनं शब्दः सर्वथैव उद्भूतः एव शब्दः भवति, अनुद्भूतः शब्दः न भवति इत्येषां चिन्तनम् अस्ति. पुनः तत्र अन्यः प्रश्नः आसीत्, अन्यः प्रश्नः कः आसीत् इत्युक्ते, ज्ञानकारणमनसंयोगाश्रयत्वं यदा उक्तं तत्र काले अतिव्याप्तिः भवति इति कृत्वा तत्र ज्ञानकारणमनं नाम मनसंयोगाश्रयत्वम् इति केवलं वदामः चेत् तत्र मनसः संयोगः कालेन सह अपि वर्तते. कालमनसंयोगः मनसोः संयोगः अस्ति एव. कुतः इति चेत् तत्र कालः विभुद्रव्यं, विभुद्रव्यस्य लक्षणं किं भवति इत्युक्ते, सर्वमूर्तद्रव्यसंयोगी विभु, संयोगित्वं विभुत्वं. तर्हि मनः मूर्तद्रव्यम् इति कृत्वा, मूर्तद्रव्यसंयोगित्वं विभुत्वे अस्ति इति कृत्वा तत्र कालमनसंयोगः सर्वदैव भवति. नाम तस्य निवारणार्थं ज्ञानकारणम् इति उक्तं. ज्ञानकारणम् इत्युक्ते मनकालसंयोगः ज्ञानकारणं न अङ्गीक्रियते इति कृत्वा तस्य व्यावृत्तिः. तत्र पुनः प्रश्नः आगतः आसीत्, किं केवलं तत्र ज्ञानस्य नाम कालस्य एव व्यावृत्तिः तत्र अस्ति वा, तत्र दिशः अपि व्यावृत्तिः अस्ति वा इति प्रश्नः आसीत्. तर्हि तत्र दिशा अपि व्यावृत्तिः भवति. कुतः इत्येतत् दिक् अपि विभुद्रव्यं, विभुद्रव्यस्य सर्वमूर्तसंयोगित्वं वर्तते एव, अतः तत् तस्यापि निवारणं, तस्याः अपि निवारणं भवति. तदपि अस्ति. तत्र अन्यः अपि प्रश्नः आगतः आसीत्, नाम तत्र आत्मभिन्नत्वे सति किमर्थं न उक्तम् इत्यादिकम् अस्माभिः चिन्तितमासीत्. नाम तत्र नैयायिकाः न केवलं, तत्र अस्माकं काचन प्रक्रिया आसीत्, कथं ज्ञानं जायते इत्युक्ते, आत्मा मनसा संयुज्यते, मनः इन्द्रियेण, इन्द्रियम् अर्थेन, ततः ज्ञानम् उत्पद्यते इति नियमः, इति प्रक्रिया अस्माभिः परिशीलिता. तत्र तत्र आत्मा मनसा संयुज्यते इति उक्तं, परन्तु आत्मा त्वचा संयुज्यते इति सर्वथैव न उक्तं. परन्तु नैयायिकानां किं चिन्तनम् अस्ति इत्युक्ते, त्वचा सह अपि संयोगः आवश्यकः ज्ञानार्थं. किमर्थं नैयायिकाः एवं चिन्तयन्ति इति तर्कः कः इति प्रश्नः आसीत्. तर्हि तत्र तर्कः कः इत्युक्ते, सुषुप्त्यवस्थायां ज्ञानं नैव जायते, परन्तु सर्वमूर्तद्रव्यसंयोगित्वात् आत्मनः आत्ममनसंयोगस्तु सर्वदैव अस्ति एव, परन्तु तथापि ज्ञानं किमर्थं न जायते सुषुप्त्यवस्थायां ज्ञानं न जायते? यद्यपि तत्र आत्ममनसंयोगः सुषुप्त्यवस्थायामपि वर्तते एव, तर्हि ज्ञानं किमर्थं न जायते इत्युक्ते नैयायिकाः वदन्ति, भोः किमर्थं ज्ञानं न जायते इत्युक्ते तदा तत्र त्वं मनसंयोगः न वर्तते सुषुप्त्यवस्थायां। यदा ज्ञानं जायते तदा सर्वदैव त्वं मनसंयोगः आवश्यकः, परन्तु सुषुप्त्यवस्थायां त्वं मनसंयोगः न भवति इति वदन्ति। पुनः प्रश्नः उदेति, तर्हि त्वं मनसंयोगः न भवति चेत् तर्हि कथं मनः कुत्र वर्तते इति प्रश्नः उदेति? तर्हि नैयायिकाः किं वदन्ति इत्युक्ते तत्र काचन नाडीविशेषः वर्तते, तत्र नाड्याः नाम अस्ति पुरितक् इति नाडी, मनः सुषुप्त्यवस्थायां पुरितकी वर्तते, अतः त्वं मनसंयोगः न जायते इति नैयायिकानां चिन्तनम् अस्ति। विशेषरूपेण तत्र विस्तरं तत्र अधिकविवरणम् इच्छन्ति चेत् तत्र न्यायसिद्धान्तमुक्तावलिग्रन्थे एतत् सम्यक् विवृतं वर्तते, अत्र किञ्चित् संक्षिप्तरूपेण उक्तम्।
महोदय प्रश्नः, सुषुप्त्यवस्थाय मनः कुत्र अस्ति इति भवता उक्तं?
तत्र पुरितक् इति नाम्नी नाडी वर्तते,
नाडी इत्युक्ते शरीरस्य भागः एव इति किल?
सत्यमेव, शरीरस्य भागः एव पृथिवी एव, परन्तु विजातीया पृथिवी इति तेषां चिन्तनं, भिन्ना पृथिवी, तर्हि त्वक् सदृश पृथिवी नास्ति, भिन्ना पृथिवी इति तेषाम्।
अस्तु
अस्तु, तर्हि इदानीं मध्ये अन्य कोऽपि आगतो वा? अस्तु अग्रे
विजयशेखराजन् महोदये, शुभदिनं।
नमस्कारः। अस्तु इदानीं तर्हि अष्टाविंशतितमे भूते अस्माकं ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रावत् इति तत्र पूर्वपक्षि ननु इति सर्वदैव पूर्वपक्षिणः आक्षेपः भवति, ननु सुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रावत् इति पूर्वपक्षिणः अत्र अनुमानप्रयोगः, सुवर्णं पार्थिवं हेतुः कः इत्युक्ते पीतत्वं, पीतवर्णः हेतुः, गुरुत्वं हेतुः हरिद्रावत् इति चेत् अरे अत्र किं भवति इत्युक्ते पीत तत्र पीतरूपं सर्वदैव पृथिव्यामेव वर्तते, अन्यच्च इदानीं गुरुत्वं तु पृथिवी केवलं पृथिव्यां न वर्तते, अन्यत्रापि भवति, जले अपि गुरुत्वं वर्तते, तर्हि किमर्थम् अत्र गुरुत्वम् अत्र उक्तम् इति प्रश्नः उदेति। अत्र चिन्तनं किम् इत्युक्ते पीतत्वम् इति स्वमतस्थापनार्थं, गुरुत्वम् इति परमतनिराकरणार्थम् उक्तम् इति चिन्तनम् अस्ति, नाम तत्र सर्वदैव परमतनिराकरणपूर्वकं स्वपक्षस्थापनं कर्तव्यम् इति वादिप्रतिवादिभिः एवं वर्तितव्यं, न केवलं स्वमतस्थापनं परन्तु परमतनिराकरणपूर्वकम्। इदानीम् अत्र पूर्वपक्षिणः अपेक्षया नाम तत्र सिद्धान्तपक्षिणः चिन्तनं किमस्ति इत्युक्ते सुवर्णं तैजसम् इति चिन्तनमस्ति, सिद्धान्तपक्षस्य चिन्तनं सुवर्णं तैजसं, तर्हि इदानीं पूर्वपक्षिणः मते परपक्ष नाम सिद्धान्तपक्षः, सिद्धान्तपक्षः कः इत्युक्ते सुवर्णं तैजसम् इति सिद्धान्तपक्षः सिद्धान्तिनः मते, तर्हि पूर्वपक्षिणः दृष्ट्या परमतं नाम तैजसत्वं, सुवर्णस्य तैजसत्वं, तर्हि सुवर्णस्य तैजसत्वं निराकरणीयं, परमतनिराकरणपूर्वकं स्वमतस्थापनं करणीयं, तर्हि स्वमतं किम् इत्युक्ते सुवर्णं पार्थिवं, तदर्थं पीतत्वात् इति उक्तं, तर्हि सुवर्णं तेजो भिन्नं परमतनिराकरणार्थं, तेजो भिन्नम् इति स्थापनार्थं गुरुत्वात् इति उक्तं, कुतः इति चेत् तत्र गुरुत्वं तेजसि न वर्तते इति चिन्तनमस्ति, अतः गुरुत्वम् इति उक्तम् अत्र हरिद्रावत् एवम् उदाहरणं दत्तं भवतु नाम एतावत्पर्यन्तम् अस्माभिः पूर्वमपि दृष्टमासीत्। इदानीं किं वदति इत्युक्ते इदानीं सिद्धान्ती वदति न इदानीं सिद्धान्ती वदति, नाम सुवर्णं पार्थिवं यत् भवता उक्तं तत् न सत्यं। सुवर्णं किमर्थं न पार्थिवम्? इदानीं प्रथमं तर्हि इदानीं कार्यकारणभावं स्थापयति, कश्चन कञ्चन कार्यकारणभावं स्थापयति। किं वदति इत्युक्ते, अत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन, जलमध्यस्थघृते द्रवत्वनाशादर्शनेन असति प्रतिबन्धके पार्थिवद्रवत्वनाशविसंयोगयोः कार्यकारणभावावधारणा। इदानीं कश्चन कार्यकारणभावस्य विषयः, प्रथमं सामान्यरूपेण पश्यामः। किं वदति इत्युक्ते, अत्यन्त अनलसंयोगे, नाम अत्यन्त अनलसंयोगे, तीव्र अनलसंयोगे, नाम न यत्किञ्चित् अनलसंयोगे, परन्तु तीव्र अनलसंयोगे, अत्यन्त अनलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन। तर्हि घृतादौ, घृतं पार्थिवम् इति अस्माभिः अङ्गीकृतमेव, सर्वे अपि कुर्वन्ति। तत्र किं दृश्यते इत्युक्ते, अत्यन्त अनलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन द्रवत्वस्य नाशः जायते। तर्हि घृतस्थस्य द्रवत्वस्य नाशः जायते अत्यन्त अनलसंयोगे। तर्हि अत्यन्त अनलसंयोगः तत्र पार्थिवद्रव्यं, नाम पार्थिवद्रव्यघृते वर्तमानस्य द्रव्यत्वनाशस्य कारणं जातम्। कारणम् इदानीं जातम् अत्यन्त अनलसंयोगः। तर्हि द्रवत्वनाशदर्शनेन, तर्हि अत्यन्त अनलसंयोगः कारणं पार्थिवद्रव्ये वर्तमानद्रवत्वनाश, नाम पार्थिवद्रव्ये वर्तमानं यत् द्रवत्वं तस्य द्रवत्वस्य नाशः कार्यं, कार्यं नाम द्रवत्वनाशः कार्यम्, अत्यन्त अनलसंयोगः कारणम् इति सामान्यरूपेण। परन्तु यदि केवल तावन्मात्र उक्तौ किं भवति इत्युक्ते व्यभिचारः दृश्यते, नाम तत्र किं भवति इत्युक्ते जलमध्यस्थघृते किं भवति, जलमध्यस्थघृते नाम जलं पात्रे जलं स्थापयामः, तस्मिन् जले पुनः घृतं स्थापयामः, तर्हि जलमध्यस्थघृतं स्थापयामः चेत् तत्र अत्यन्त अनलसंयोगे सति अपि घृतस्य द्रवत्वनाश नैव जायते, घृतस्थं यत् द्रवत्वं तस्य नाशः नैव जायते। तर्हि इदानीं यदि वयम् अत्यन्त अनलसंयोगः घृतस्थद्रवत्वनाशस्य कारणं वदामः चेत् किं भवति इत्युक्ते, तत्र जलमध्यस्थघृते किमस्ति, अत्यन्त अनलसंयोगः अस्ति, परन्तु घृतगतद्रवत्वनाशः नास्ति, अत्यन्त अमलसंयोगः अस्ति परन्तु घृतगतद्रवत्वनाशः नास्ति। तर्हि कारणसत्त्वे कार्य असत्त्वं नाम अन्वयव्यभिचारः जातः। इदानीं कार्यकारणभावे अत्र किं जातम् इत्युक्ते अन्वयव्यभिचारः, कुतः इति चेत् तत्र अत्यन्त अमलसंयोगे द्रवत्वनाशः न जातः, अस्माभिः कारणरूपेण अत्यन्त अनलसंयोगः स्वीकृतः, परन्तु कारणसत्त्वेपि इदानीं जलमध्यस्थघृतस्थद्रवत्वनाशस्य अदर्शनेन किं ज्ञायते इत्युक्ते इदानीं व्यभिचारो वा इति प्रश्नः उदे। तर्हि इदानीं कार्यकारणभावे किञ्चिदिव परिवर्तनं क्रियते। किं परिवर्तनम् इत्युक्ते, अत्यन्त अनलसंयोग इति साधारणरूपेण द्रवत्वनाशस्य कारणरूपेण न स्वीक्रियते, परन्तु विशिष्ट अत्यन्त अनलसंयोगस्यैव कारणत्वं स्वीक्रियते। अत्र वैशिष्ट्यं कीदृशं, नाम सामान्य अत्यन्त अनलसंयोगस्य कारणत्वं न स्वीक्रियते, द्रवत्वनाशकारणत्वं पार्थिवद्रव्यस्थद्रवत्वनाशकारणत्वं न स्वीक्रियते, परन्तु विशिष्ट अत्यन्त अनलसंयोगस्यैव कारणत्वम्। अत्र वैशिष्ट्यं कीदृशम् इत्युक्ते, इदानीं वदति असति प्रतिबन्धके पार्थिवद्रवत्वनाश अग्निसंयोगयोः कार्यकारणभावावधारणं, नाम तत्र वैशिष्ट्यं नाम प्रतिबन्धक अभावविशिष्ट अत्यन्त अनलसंयोग एव कारणम्। अत्यन्त तत्र प्रतिबन्धक अभावविशिष्ट नाम यत्र प्रतिबन्धकः नास्ति तादृशः अत्यन्त अनलसंयोगः, नाम द्रवत्वनाशप्रतिबन्धक असमवहित अत्यन्त अनलसंयोगः, नाम तत्र सामान्यरूपेण वदामः चेत् तत्र प्रतिबन्धक अभावविशिष्ट अग्निसंयोग अत्यन्त अग्निसंयोग एव कारणं न तु सामान्य अग्निसंयोगकारणम् इति इदानीं वदति. तेन किं भवति इत्युक्ते इदानीम् अन्वयव्यभिचारस्य निराकरणं भवति. अन्वयव्यभिचारस्य निराकरणं कथं भवति इत्युक्ते अस्माकम् अन्वयव्यभिचारः कुत्र आगतः इत्युक्ते जलमध्यस्य कृते द्रवत्वनाशदर्शनेन अत्र अन्वयव्यभिचारः अस्माभिः प्रदर्शितः आसीत्. यदि केवलम् अत्यन्त अनलसंयोगः एव कारणम् इति वदामः चेत् तत्र जलमध्यस्थ घृते तत्र व्यभिचारः अन्वयव्यभिचारः प्रदर्शितः. इदानीं परिष्कृतं यत् कारणं विशिष्टं यत् कारणं तथा कारणस्य यदि स्वरूपचिन्तनं क्रियते चेत् अत्र व्यभिचारः न भवति. कथं न भवति इत्युक्ते प्रतिबन्धक अभावविशिष्ट अत्यन्त अनलसंयोगजलमध्यस्थ घृते नास्ति. कुतः इति चेत् जलमध्यस्थघृते अत्यन्त अनलसंयोगस्तु अस्ति. तत्र पात्रे स्थापयित्वा तत्र चूल्यां तत्र अधिश्रयणादिकं कृत्वा तर्हि इन्धनादिकं तत् दत्वा तत्र तत्र महा तत्र महत् तत्र तेजः उत्पाद्यते चेदपि तत्र नाम तत्र अत्यन्त अनलसंयोगः भवति चेदपि तत्र प्रतिबन्धकः अस्ति. कः प्रतिबन्धकः इत्युक्ते जलम् एव प्रतिबन्धकः. तर्हि अत्र अत्यन्त अनलसंयोगः अस्ति परन्तु प्रतिबन्धकजल अभावविशिष्ट अत्यन्त अनलसंयोगः नास्ति. अत्यन्त अनलसंयोगः अस्ति परन्तु सामान्य अत्यन्त अनलसंयोगः कारणत्वेन न अभिमतः. कः कारणत्वेन अभिमतः? कीदृशः संयोगः कारणत्वेन अभिमतः इत्युक्ते विशिष्टसंयोगः कारणत्वेन अभिमतः. कीदृशं वैशिष्ट्यम् इत्युक्ते प्रतिबन्धक अभावविशिष्ट परन्तु तादृश अत्यन्त अनलसंयोगः अत्र नास्ति. कुतः इति चेत् अत्र प्रतिबन्धकं जलम् अत्र अस्ति एव. प्रतिबन्धक अभावः नास्ति. प्रतिबन्धक अभावविशिष्ट कारणम् अत्र नास्ति इति कृत्वा कारणमेव नास्ति इदानीं. तर्हि कारणसत्त्वे कार्यासत्वम् इति व्यभिचारः इदानीं नैव प्रसज्यते.
तर्हि
असति
तत्र यदि यत्र प्रतिबन्धकं मध्ये अस्ति तत्र तेजघृत घृतयोः मध्ये संयोगः एव नास्ति किल?
सत्यं. इदानीं किं भवति इत्युक्ते तेजः नाम न केवलं तत्र पात्रस्य अधभूतं तेजः एव तत्र अग्निः इति वक्तुं न शक्यते. तत्र जले अपि अग्निः भवति. बह्निः जले अपि भवति. तादृशं चिन्तनं महोदय. यदि उष्णं जलम् अस्ति चेत् जले तत्र अग्निः अस्ति एव. नैयायिकानाम् एवं चिन्तनम्.
ओहो.
न केवलं तस्य प्रत्यक्षं न भवति. अस्माभिः तत्र बास्वरशुक्लरूपं न दृश्यते. कुतः इति चेत् तत्र अनुभूतरूपं वर्तते इति तेषां चिन्तनम्.
किन्तु जलस्य स्वभावं तैजसं नास्ति इति कृत्वा तत्र संयोगजसंयोगः इति किमपि चिन्तनमस्ति वा?
न, तदपि चिन्तनं न कर्तव्यं. कुतः इति चेत् तत्र जलम् अग्निसंयुक्तमेव वर्तते. तत्र अग्निकणाः जले वर्तन्ते इति नैयायिकानां.
ओ, साक्षात् अग्निकणाः जले वर्तन्ते. अतः एव जलं जले औष्ण्यं.
सत्यं सत्यं. तर्हि इदानीं तर्हि कारणस्य स्वरूपं तत्र विशिष्टम् अस्ति. असति प्रतिबन्धके नाम प्रतिबन्धकः अभावविशिष्ट अत्यन्त अनलसंयोगस्यैव कार्य कारणत्वं. कार्यत्वं तु पार्थिवद्रवत्वनाशः कार्यत्वम्. इदानीम् एतावत्पर्यन्तं स्पष्टमस्ति वा न वा इति पश्यामः. तर्हि इदानीं महोदय भवानेव किञ्चित् पठति वा इति किञ्चित् विवरणं करोति वा इति ननुसुवर्णम् इति आरभ्य
प्रयत्नं करोमि. ननुसुवर्णं पार्थिवं पीतत्वात् गुरुत्वात् हरिद्रावत् इति चेत् तत् एतत् पूर्वपक्षिणः मतं. तेषां मतानुसारं पार्थिव सुवर्णं तु पार्थिवद्रव्यम् अस्ति. किमर्थम् इत्युक्ते पीतत्वं तस्मिन् अस्ति इति कृत्वा तत् पार्थिवद्रव्यम् अस्ति. अपि च इदानीं नैयायिकानां मतानुसारं अग्नौ गुरुत्वं न वर्तते किन्तु सुवर्णे गुरुत्वं वर्तते इति कृत्वा नैयायिकानां मतस्य निराकरणं कुर्वन्ति गुरुत्वात् इति हेतुना. इति द्वयमपि पूर्वपक्षिणा उक्तम् अत्र. अतः सुवर्णं पार्थिवद्रव्यमेव, तस्मिन् पीतत्वम् अस्ति अपि च गुरुत्वमस्ति, गुरुत्वमपि अस्ति इति कृत्वा स्वमतस्थापनम् अपि कृतं पीतत्वात् इति हेतुना, गुरुत्वात् इति हेतुना नैयायिकानां मतं निराकृतं भवति अस्मिन् वाक्ये इति वदति चेत् न इति सिद्धान्तिः. इदानीं सिद्धान्ती तु नैयायिकाः एव, ते वदन्ति तादृशं नास्ति. किमर्थम् इत्युक्ते तत्र अत्यन्त अनलसंयोगः इति कारणं द्रवत्वनाशम् इति कार्यम् इति स्वीकृत्य, कारणकार्यभावं स्वीकृत्य तेषां मतं स्थापनं कुर्वन्ति. कथम् इत्युक्ते यत्र घृतम् इति द्रव्यं स्वीकुर्मः तत्र अत्यन्तसन् अनलसंयोगे सति यद्द्रवत्वं घृतौ वर्तते तस्य नाशः भवत्येव. केवलं द्रवत्वस्य नाशः नास्ति, घृतस्य एव नाशः भवति इति अन्वय उदाहरणं प्रदर्शयित्वा तत्र तादृशं सुवर्णस्य नाशं न भवति अत्यन्त अनलसंयोगे सति इति कृत्वा पार्थिवं सुवर्णं तु पार्थिवद्रव्यं नास्ति इति वदन्ति.
इदानीम् एतावत्पर्यन्तं सुवर्णपर्यन्तं न
प्राप्तं. अस्तु
इदानीम् अस्तु, सम्यक् सम्यक् एव महोदय. इदानीं सावित्री भगिनी तत्र जलमध्यस्थघृते द्रवत्वनाश दर्शनेन असति प्रतिबन्धते पार्थिवद्रवत्वनाशादि सम्ययोः कार्यकारणभावधारणा, अत्र किमर्थं तत्र विशेषणं देयम् इति किञ्चिदिव विवरणं करोति वा?
अस्तु महोदय, अस्तु प्रयत्नं करोमि. यथा महोदयेन उक्तम् इदानीमेव अत्यन्त अनलसंयोगे धृतादौ यद्द्रवत्वम् अस्ति तस्य नाशः भवति इति वयं तु द्रष्टुं शक्नुमः. परन्तु यदा धृतमेव जलमध्ये स्थापयामः तदनन्तरम् अत्यन्त अनलसंयोगे दास्यामः चेदपि द्रवत्वस्य नाशः न जायते. तत्र अन्वयसहचारः प्रथम उदाहरणे, अन्वय व्यभिचारः द्वितीय उदाहरणे. इत्युक्ते कारणसत्त्वे कार्यसत्त्वं प्रथम उदाहरणे, अत्यन्त अनलसंयोगः कारणं, द्रवत्वनाशनं कार्यं. परन्तु जलमध्ये स्थापयामः चेत् अत्यन्त अनलसंयोगः कारणं भवति चेदपि द्रवत्वस्य नाशनं न द्रष्टुं शक्नुमः. तदर्थं तत्र व्यभिचारः प्रदर्श्यते इति यदि चिन्तयति चेत् तस्य निराकरणाय इदानीं नूतनबिन्दुं स्थापितं तत्र असति प्रतिबन्धके. इत्युक्ते यत्र प्रतिबन्धकस्य अभावः अस्ति, इत्युक्ते जलमध्ये यत्र अत्यन्त अनलसंयोगः स्थापयामः तद् विशिष्ट अनलसंयोगः इति स्वीकृत्य तत्र पार्थिव द्रवत्वनाशस्य कारणं भवति विशिष्ट अनलसंयोगः. तथा स्वीकुर्मः चेत् तत्र व्यभिचारः न दृश्यते इति कार्यकारणस्य भावस्य प्रदर्शनं कुर्वन्ति.
आम् सत्यं सत्यम्. इदानीं तत्र उदाहरणादिकं स्वीकृत्य कार्यकारणभावः प्रदर्शितः. तत्र कारणम् इदानीम् अस्माभिः स्पष्टं ज्ञातमेव. कारणं किम् इत्युक्ते असति प्रतिबन्धके पार्थिव द्रवत्व पार्थिवद्रवत्वनाश अग्निसंयोगकार्यकारणभावः. कार्यं नाम द्रवत्वनाश पार्थिवद्रवत्वनाशः. कारणं तत्र प्रतिबन्धक अभावविशिष्ट अत्यन्तानलसंयोगकारणम्. एतावत्पर्यन्तं तत् प्राप्तम्. इदानीं किं करोति? इदानीं कार्यकारणभावं स्थापयित्वा इदानीं पूर्वपक्षिणः यत् चिन्तनमासीत्, नाम सुवर्णं पार्थिवम् इति यत् पूर्वपक्षिणः चिन्तनमासीत्, तस्य इदानीं निराकरणं करोति. कार्यकारणभावं स्वीकृत्य इदानीं पूर्वं कार्यकारणभावस्य स्थापनं, कार्यकारणभावस्य स्थापनानन्तरं कार्यकारणभावस्य प्रयोगं कृत्वा पूर्वपक्षिणः यत् मतमस्ति, सुवर्णं पार्थिवम् इति मतमस्ति, तस्य मतस्य निराकरणम् इदानीं करोति. कथं करोति इत्युक्ते इदानीं वदति सुवर्णस्य अत्यन्त अनलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्व अनुपपत्तेः इति वदति इदानीं किं वदति इत्युक्ते भो अस्माकं कार्यकारणभावः इदानीं स्थापितः यत्र प्रतिबन्धकः नास्ति तत्र अत्यन्त अनलसंयोगे सति पार्थिवद्रव्ये विद्यमानद्रवत्वस्य नाशः सर्वथैव जायते परन्तु तत्र सुवर्णस्य तत्र प्रतिबन्धकः कोऽपि न दृश्यते नास्ति एव तथापि सुवर्णस्य अत्यन्त अनलसंयोगे द्रवत्वस्य द्रवत्वं नैव नश्यति न उच्छिद्यते अनुच्छिद्यमानद्रवत्वम् अस्ति सुवर्णस्य अत्यन्त अनलसंयोगे सति कीदृशः अत्यन्त अनलसंयोगः अत्र प्रतिबन्धकोऽपि नास्ति प्रतिबन्धक अभावविषयः अनलसंयोगे सति अपि तत्र द्रवत्वस्य उच्छेदः न जायते उच्छेदः न जायते अनुच्छिद्यमानद्रवत्वमेव कीदृशं द्रवत्वम् अनुच्छिद्यमानद्रवत्वं पार्थिवद्रव्ये किं भवति उच्छिद्यमानद्रवत्वं भवति अत्यन्त प्रतिबन्धकः यदि नास्ति चेत् अत्यन्तरणसंयोगे कृते तस्य द्रवत्वस्य उच्छेदः जायते तर्हि उच्छिद्यमानद्रवत्वं पार्थिवद्रव्ये परन्तु सुवर्णे वयं साक्षात् पश्यामः नैयायिकाः वदन्ति किं वदन्ति इत्युक्ते अनुच्छिद्यमानद्रवत्वं सुवर्णे अस्ति भोः तर्हि अत्र यदि पार्थिवं स्यात् यदि सुवर्णं पार्थिवं स्यात् तर्हि द्रवत्वस्य उच्छेदः स्यात् यदि सुवर्णं पार्थिवं स्यात् तर्हि द्रवत्वस्य उच्छेदः स्यात् नाशः स्यात् परन्तु नाशः न दृश्यते खलु नाशः न दृश्यते इति कृत्वा पार्थिवत्व असिद्धिः अनुपपत्ति नाम असिद्धिः पार्थिवत्व असिद्धिः सुवर्णस्य अत्यन्त अनलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्व अनुपपत्तेः इदानीम् एवं वदति तत्र रक्षा भगिनी किञ्चित् विवरणं करोति वा एतस्य वाक्यस्य इदानीम्
आं महोदय प्रथमतया कार्य सिद्धान्ते कार्यकारणभावं स्थापयति कार्यकारणभावे किं वदति इति चेत् एकं प्रतिबन्धकाभावविशिष्ट अत्यन्तानलसंयोगः कारणं भवति तदा पार्थिवद्रव्येषु किं द्रवत्वं न नश्यति इति किन्तु सुवर्णस्थले किम् इति तादृशकार्यकरणभावः अस्ति वा इति परिशीलनं करोति सुवर्णस्य अत्यन्तानलसंयोगः भवति चेदपि नाम प्रतिबन्धकाभावविशिष्ट अनलसंयोगः नास्ति चेदपि यद् द्रवत्वम् अस्ति सुवर्णे तद् अनुच्छिद्यमानं नाम न नश्यति द्रवत्वम् इति कार्यकारणभावस्य विच्छेदः जातः इति कृत्वा सुवर्णं न पार्थिवद्रव्यं पार्थिवत्व अनुपपत्तिः आगच्छति सुवर्णे इति
आं सत्यं पार्थिवत्वम् असिद्धिः कुतः इति चेत् कार्यकारणभावः तत्र प्रतिष्ठितः कार्यकारणभावः सर्वाधिमतः कार्यकारणभावः कीदृशः इत्युक्ते प्रतिबन्धक अभावविशिष्ट अत्यन्त अनलसंयोगे सति पार्थिवद्रव्यगतद्रवत्वस्य उच्छेदः भवत्येव परन्तु सुवर्णगतद्रवत्वस्य उच्छेदः नैव जायते अत्यन्त अनलसंयोगे सत्यपि प्रतिबन्धक अभावविशिष्ट अत्यन्त अनलसंयोग संयोगे सति अपि सुवर्णगतद्रवत्वस्य नाश अदर्शनेन किं जायते किं ज्ञायते इत्युक्ते सुवर्णं न पार्थिवं पार्थिवत्वम् असिद्धं भवति अनुपपत्तिः भवति इति वदति सत्यमेव अस्तु तर्हि इदानीं किम् उक्तम् एतावत्पर्यन्तं पूर्वपक्षिणः यत् चिन्तनमासीत् सुवर्णं पार्थिवम् इति चिन्तनं तस्य चिन्तनस्य निराकरणं कृतम् इदानीं सुवर्णं न पार्थिवम् इति उक्तम् एतावत्पर्यन्तं सिद्धान्ती सुवर्णं तैजसम् इति न वदति एतावत्पर्यन्तं सिद्धान्ती किं वदति इत्युक्ते पार्थिवत्व अनुपपत्तिः भोः पार्थिवं तु नैव पार्थिवत्व अनुपपत्तेः इदानीम् इतः परं किं किं करोति इति पश्यामः तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वायुवादिष्वनन्तर्भावात् तैजसत्वसिद्धिः बहु किमपि अस्ति अत्र अस्मिन् वाक्ये अत्र पुनः किं वदति इदानीम् एतावत्पर्यन्तं सुवर्णं न पार्थिवम् इति स्थापितम् इदानीम् इतोपि सूक्ष्मं चिन्तनं करोति इतोपि सूक्ष्मं चिन्तनं करोति किं सूक्ष्मं चिन्तनम् इत्युक्ते अस्तु नाम सुवर्णं न पार्थिवम् इति तु सिद्धं परन्तु यदि सुवर्णे अत्यन्त अनलसंयोगः जायते तदा तत्र सुवर्णं द्रवीभूतं भवति, द्रवीभूतं भवति, द्रवत्वं तत्र वयं पश्यामः. तर्हि तत् द्रवीभूतं सुवर्णं पीतवर्णिकः, वर्णिकं सुवर्णं, तत्र पीतवर्णः अपि अस्ति. परन्तु पीतवर्णः कस्य पीतवर्णः? पीतवर्णः अस्ति, अपि तु द्रव, तत्र द्रवद्रव्यम् अपि अस्ति, न केवलं पीतवर्णं. तर्हि पीतद्रव्य अस्ति तत्र, पीतद्रव्यमस्ति तत्र, पीतद्रव्यमस्ति वयं जानीमः एव. तथा चेत् तत्र साक्षात् अनुभूयते, तत्र पीत वर्णः अस्ति, द्रवत्वम् अपि अस्ति. तर्हि तस्य पीतद्रव्यस्य, तस्य द्रव्यस्य त्वं किमर्थं न नष्टम् इति प्रश्नः. पीतद्रव्य किमर्थम् इति चेत् इदानीं तत्र चिन्तनं किम् इत्युक्ते, तत्र पीतद्रव्यं पार्थिवद्रव्यं, पीतत्वं सर्वथैव पृथिव्यामेव भवति. तर्हि पार्थिवद्रव द्रवत्वनाशः जायेत कुतः इति चेत् कार्यकारणभावः अस्ति. नाम अत्र चिन्तनं किम् इत्युक्ते सुवर्णे भागद्वयं वर्तते, तत्र सुवर्ण तत्र, तर्हि द्रव तत्र द्रवीभूते सुवर्णे भागद्वयं वर्तते इति चिन्तनम्. प्रथमभागः तर्हि पीतद्रव्यं, तत्तु पार्थिवं, पार्थिवं पीतद्रव्यमस्ति चेत् पार्थिवं भवत्येव, अपि तु तत्र द्रवीभूतं वर्तते. तर्हि घृत इव, घृतं कीदृशमासीत् तत्र घृत, तत्र घृते अपि तर्हि घृतमपि पार्थिवं, तत्र अनलसंयोगे तत्र द्रवत्वम् आयाति. तथैव अत्रापि कश्चन पार्थिवभागः वर्तते यस्य इदानीं द्रवत्वं जातं, द्रवीभूतं तत् पार्थिवद्रव्यं, तदेव पीत, पीतभागः तत्र. तर्हि पीतभागः नाम द्रवद्रव्यं पार्थिवं तत्र पार्थिवभागः, परन्तु इदानीं द्रवीभूतः पार्थिवभागः, पार्थिवद्रवीभूतभागः अस्ति चेत् अस्माकं नियमः कः आसीत्, कार्यकारणभावः कः आसीत्? असति प्रतिबन्धके तस्य द्रवत्वस्य उच्छेदः जायते एव इति कार्यकारणभावः आसीत्. तर्हि पीतद्रवद्रव्यं पार्थिवद्रव्यम् अस्माभिः साक्षात् दृश्यते इदानीं सुवर्ण, सुवर्णे यदा अत्यन्त अनलसंयोगः संयोगे संयोगं कुर्मः तदा सुवर्णं द्रवीभूतं भवति. तस्मिन् द्रवीभूते द्रव्ये भागद्वयं वर्तते. कुतः भागद्वयम् इत्युक्ते इदानीं पश्यामः किमर्थं. वयं निश्चयरूपेण जानीमः तत्र पृथिवीभागं, भागः तु वर्तते निश्चयरूपेण जानीमः. कुतः इति चेत् तत्र पीतत्व आश्रयत्वात् पीतत्वं सर्वदैव पृथिव्यामेव भवति इति कृत्वा तत्र पार्थिव द्रवद्रव्यं तत्र वर्तते इति तु वयं स्पष्टं जानीमः, स्पष्टं जानीमः. परन्तु इदानीं चिन्तनं किम् इत्युक्ते, तर्हि तर्हि द्रवीभूतं तत् पार्थिवद्रव्यस्य द्रवत्वस्य उच्छेदः किमर्थं न जातः? किमर्थं तत्र तत्र पीतपार्थिवद्रवीभूतपार्थिवद्रव्यस्य द्रवत्वस्य उच्छेदः किमर्थं न जातः इत्युक्ते, इदानीं कार्यकारणभावः कीदृशः आसीत्? यदि प्रतिबन्धक अभावविशिष्ट अत्यन्त अनलसंयोगः भवति चेत् पार्थिवद्रवत्वस्य नाशः भवत्येव, परन्तु अत्र न जातः इत्युक्ते किं चिन्तनं करणीयम् इत्युक्ते अत्र कश्चन प्रतिबन्धकद्रवद्रव्यान्तरम् अस्ति इति चिन्तनं करणीयम्. यथा पूर्वं किमासीत्, पूर्वं तत्र घृतगतद्रवत्वस्य उच्छेदः किमर्थं न जातः इत्युक्ते जलमध्ये अस्ति इति कृत्वा न जातः. तर्हि यदा पार्थिवगतद्रवत्वस्य उच्छेदः न भवति अत्यन्त अनलसंयोगेपि, तदा किं चिन्तनं करणीयम् इत्युक्ते तत्र अस्ति द्रवद्रव्यान्तरं भिन्नं, तत्र प्रतिबन्धकीभूतं द्रवद्रव्यान्तरं नाम पृथिवीभिन्नं द्रव्यान्तरम्. अत्र यथा जलं भिन्नम् अस्ति तथा पृथिवीभिन्नं द्रवद्रव्यान्तरं, पृथिवीभिन्नं द्रवद्रव्यं प्रतिबन्धकीभूतम् अस्ति इति चिन्तनं करणीयं भवति. तर्हि अत्रापि तथैव, तस्मात् पीतद्रव्य द्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ, नाम पीतद्रव्यगतद्रवत्वस्य नाशः न भवति इति कृत्वा इदानीं किं चिन्तनं करणीयम् इत्युक्ते तत्र अस्ति, तत्र द्रवद्रव्यान्तर अस्ति कश्चन, तत्र द्रवद्रव्यान्तर, द्रव्यान्तर नाम पृथिवी भिन्न द्रवद्रव्यम् अस्ति तत्र इति सिद्धं भवति इति. एतावत्पर्यन्तं किं जातम् इत्युक्ते इदानीं तत्र द्रवीभूते सुवर्णे भागद्वयं वर्तते. प्रथमभागः तर्हि पीतद्रव्यं, द्वितीयभागः द्रवद्रव्यान्तरं भिन्नद्रवद्रव्यम् इति एतावत्पर्यन्तम् आगतम्. इदानीं यत् द्रवद्रव्यान्तरं, यत् भिन्नं द्रव्यं तत्र सिद्धं, तस्य कुत्र अन्तर्भावः इति प्रश्नः. किं तत् जलं वा, किं तत् वायुः वा, आकाशः वा, मनः वा, आत्मा वा, अथवा तत्र तैजसत्वं नाम तैजसद्रव्यं वा इति प्रश्नः. द्रवद्रव्यान्तरं सिद्धम् एतावत्पर्यन्तं, परन्तु निश्चयेन वक्तुम् एतावता न शक्नुमः यत् तत् तैजसम् इति वक्तुं न शक्नुमः. तस्य कृते किञ्चित् इतोपि चिन्तनं करणीयम्. परन्तु एतावत्पर्यन्तमपि लघुभागः एव, परन्तु तत्र किञ्चित् तत्र पश्यामः एतत् स्पष्टमस्ति वा न वा. तर्हि सन्ध्याभगिनी किञ्चित् वदति वा, तस्मात् पीतद्रव्यद्रवत्तनाशप्रतिबन्धकतया द्रवद्रव्यान्तरस्य सिद्धिः कथं भवति इति किञ्चित् विवरणं करोति वा?
आं महोदय, तर्हि यद् यत् पूर्वं दर्शितं तत्र घृते यदि प्रतिबन्धः कोऽपि नास्ति तर्हि अत्यन्तानलसंयोगेन तस्य द्रवत्वनाशः भवति, परन्तु प्रतिबन्धकः अस्ति तदा तु नाशः न भवति इति. तर्हि इदानीम् अत्र यदि सुवर्णे यदि अत्यन्तानलसंयोगः भवति तर्हि तत्र तत्र द्रवीभूतं सुवर्णं भवति, तत्र यद् पीतद्रव्यत्वम् अस्ति तत्र यद् पीतद्रव्यम् इति द्रवीभूतं यद् सुवर्णमस्ति पीतद्रव्यं, तस्य द्रवत्वस्य नाशः न भवति अत्यन्तानलसंयोगे अपि. अतः घृतस्य उदाहरणं स्वीकृत्य यथा तत्र जलम् इति प्रतिबन्धकम् आसीत् अत्रापि प्रतिबन्धकरीत्या कोऽपि भिन्नद्रव्यम् अस्ति अत्र इति नैयायिकाः
साधयन्ति. भिन्नं द्रवद्रव्यं, भिन्नं द्रवद्रव्यम् अस्ति इति चिन्तनं करणीयं. द्रवद्रव्यान्तरं सिद्धौ. अस्तु, इदानीं किं वदति इत्युक्ते, भोः अस्तु द्रव तत्र द्रवद्रव्यं भिन्नं द्रवद्रव्यं सिद्धम् इदानीम् अस्ति तत्र, न केवलं पार्थिवभागः विद्यते.
एतत् द्रवद्रव्यं पृथिवी नास्ति इति एतावता स्थापितवन्तः, तावदेव खलु?
सत्यमेव,
परन्तु
तत्र परन्तु कुत्र अन्तर्भावः एतावत्पर्यन्तं न साधितः.
पीतवर्णेन पृथ्वी इति न स्वीक्रियते वा?
न न न, तत्र पीत तत्र किं तत्र चिन्तनं किम् इत्युक्ते तदेव चिन्तनं. साक्षात् तत्र पीतवर्णः अस्ति, पार्थिवभागः तत्र अस्ति एव इति चिन्तनं. तत्र द्रवीभूतपार्थिवभागः अस्ति सत्यं, परन्तु तस्मिन् द्रवीभूते पार्थिवभागे विद्यमानस्य द्रवत्वस्य उच्छेदः किमर्थं न जातः इति प्रश्नः.
अस्तु अस्तु,
प्रश्नः इत्युक्ते अन्यत् द्रव्यम् अस्ति, द्रवद्रव्यं तत्र अन्यदपि अस्ति, न केवलं पार्थिवद्रवद्रव्यम्, अन्यत् अपि द्रवद्रव्यान्तरम् अस्ति इति सिद्धिः.
नाम पृथ्वी तु नास्ति, कार्यकारणभावः नास्ति इत्यतः, परन्तु पार्थिव अंशाः तु सन्ति पीतत्वात् इति स्वीक्रियते एतावत्.
आमां, नाम तत्र भागद्वयं वर्तते इति इदानीं चिन्तनं. पार्थिवभागः वर्तते एव,
अस्तु,
परन्तु भिन्न अन्यत् द्रव्यमपि तत्र वर्तते. किमर्थं तथा चिन्तनं क्रियते इत्युक्ते, तर्हि यदि अन्यत् द्रवद्रव्यं प्रतिबन्धकरूपेण अस्ति इति चिन्तनं न क्रियते चेत् तत्र पार्थिवगतद्रवत्वस्य विनाशः स्यात्. कुतः इत्युक्ते तत्र अत्र अत्यन्त अनलसंयोगः अस्ति. अत्यन्त अनलसंयोगः अस्ति, परन्तु पार्थिवद्रवद्रव्यगतद्रवत्वस्य नाशः न जातः. तर्हि किमर्थं न जातः इत्युक्ते, यथा पूर्वं तर्हि जलमध्यस्थ घृतस्य द्रवद्रवत्वस्य नाशः न, तत्रापि भागद्वयं वर्तते, घृतं वर्तते, जलं वर्तते। तर्हि घृतगतद्रवत्वस्य उच्छेदः किमर्थं न जातः इत्युक्ते अन्यत् तत्र घृतभिन्नम् अन्यत् द्रवद्रव्यं जलं तत्र वर्तते इति कृत्वा उच्छेदः न जातः।
अस्तु, तर्हि अत्र अन्यत् द्रवद्रव्यं किम् इति?
आम्, अत्र अन्यत् द्रवद्रव्यं किम् इति इदानीं प्रश्नः।
इति चेत् द्रवद्रव्यम् इत्युक्ते पृथिवी इति स्वीकार्यं
न न न इदानीं न स्वीक्रियते तत्, तद् इदानीं तदेव अत्र तत् भिन्नं द्रवद्रव्यं पीतद्रवद्रव्यम् अस्ति एव, तत् पृथिवी जानीमः तद्, परन्तु तद् अतिरिक्तम् अपि तत्र किञ्चित् वर्तते। तद् अतिरिक्तं पार्थिवं न भवितुमर्हति। किमर्थमिति चेत् तद् अतिरिक्तमपि पार्थिवं पार्थिवं यदि स्यात् तर्हि द्रवत्वस्य उच्छेदः स्यात् खलु, यतोहि द्रवत्वस्य उच्छेदः न जातः तर्हि पार्थिवभिन्नं द्रवद्रव्यं तत्र अन्यत् किमपि वर्तते। पार्थिवद्रवद्रव्यमपि वर्तते, पार्थिव इतरद्रवद्रव्यमपि तत्र वर्तते इति एतावत्पर्यन्तं प्राप्तम्।
अस्तु महोदय, धन्यवादः।
अस्तु, तर्हि इदानीम् इदानीं किं वदति इत्युक्ते एतावत्पर्यन्तं भिन्नं द्रवद्रव्यं तत्र वर्तते इत्येतावत्पर्यन्तम्। इदानीं तत् भिन्नं द्रवद्रव्यस्य स्वरूपं, तस्य भिन्नद्रवद्रव्यस्य स्वरूपं कीदृशं, कुत्र अन्तर्भावः इत्युक्ते इदानीं वदति न जलं, न जलं, तत् द्रवद्रव्यान्तरं न जलं। किमर्थम् इति चेत् तत्र उत्तरं समाधानं वदति नैमित्तिकद्रवत्वाधिकरणतया जलत्व अनुपपत्ति, नाम जलस्य द्रवत्वं कीदृशम् इत्युक्ते सांसिद्धिकं द्रवत्वं सर्वदैव भवति, तत्र निमित्तादिकं न अपेक्षते। सुवर्णस्य द्रवत्वं, सुवर्णं सर्वदैव द्रवीभूतं न भवति। यदा अनलसंयोगः क्रियते, अत्यन्त अनलसंयोगः, तीव्र अनलसंयोगः, यदा अनलसंयोगः तत्र तदेव निमित्तकारणं। तर्हि नैमित्तिकमस्ति सुवर्णस्य द्रवत्वं, तर्हि नैमित्तिकद्रवत्वस्य अधिकरणं जलं नैव भवति, सांसिद्धिकद्रवत्वस्य एव अधिकरणं जलम्, अतः तत् द्रव्यं जलं भवितुं नार्हति सांसिद्धिकद्रवत्व अधिकरणत्वात्। पुनः वदति रूपवत्तया वायुवादिषु अनन्तर्भावः, इदानीं किं भवति तत्र आकाशः अस्ति वा एतत् द्रवद्रव्यं? नैव अस्ति, आकाशः द्रवं द्रवमपि न भवति, परन्तु रूपाभावः अस्ति इति कृत्वा आकाशे रूपं नास्ति इति कृत्वा, तत्र वायुः अपि रूपं नास्ति इति कृत्वा तत्र किं किम् अस्ति अन्यत्र सव्यम्, अन्यत् किं किम् अस्ति पृथ्वी अस्ति वायुः, कालदिगात्मा मनः सर्वत्र कुत्रापि न अन्तर्भावः, कुत इति चेत् सर्वत्र रूपवत्ताभावः। तर्हि वायुवादिषु अनन्तर्भावः, इदानीं जलमपि नास्ति, पृथिवी अपि नास्ति, वायुवादि अपि नास्ति, आदयः अपि आदौ अपि न अन्तर्भवति, तर्हि पारिशिष्यात् इदानीं तत्र अवशिष्टः अवशिष्टं द्रव्यं किम् इत्युक्ते तेजः, तेजस्य एव तत्र अन्तर्भावः, तर्हि तत् द्रवद्रव्यं तैजसम् इति सिद्धिः भवति। इदानीम् अत्र निरञ्जनमहोदय किञ्चित् विवरणं करोति वा तत्र नैमित्तिकद्रवत्वा तेजसस्य तावत्पर्यन्तं?
हा, प्रयत्नं करोमि महोदय। इदानीं पूर्वं वयं दृष्टवन्तः तत् सुवर्णं पार्थिवं नास्ति इति, तदनन्तरम् इदानीं तैजसम् इति साधितुम् इच्छामः, तत्र पीतद्रव्यद्रवत्वम् इति द्रष्टं, तत्र पार्थिव अंशः अस्ति किन्तु अन्य द्रवद्रव्यान्तर अंशः अपि अस्ति, तद् सः अंशः कीदृशः इति प्रश्नः इदानीं
महोदय। प्रश्नः अत्र तत्र द्रवद्रव्यान्तरभिन्नः अस्ति इति तत्र किमर्थं वयं चिन्तयामः?
यदि तत्र अन्य द्रवद्रव्यान्तरः नास्ति चेत् तत्र अत्र अत्यन्त अनिलसंयोगेन तत्र तस्य
पार्थिवभागस्य द्रवत्वस्य
द्रवत्वस्य तस्य भागस्य तत्तु उच्छेदः स्यात् किन्तु तत्तु न भवति इति कृत्वा तत्र अन्य अंशः अपि स्यात् इति
प्रतिबन्धकः अन्य
द्रवद्रवत्वं स्वीकरणीयः भवति. इदानीं तस्य नूतन द्रवद्रव्यान्तरस् अंशस्य सः किं सः कः इति प्रश्नः उदेति. तत्र तत्तु तत् पृथ्वी नास्ति, अतः जल वा अथवा वायु वा अथवा किमपि अन्यत् भवितुम् अर्हति. अतः केवलं तैजसः इति साधितव्यः भवति. तत्र यदि जलं स्यात् तत्र तु तत् सर्वदा तत्र द्रवत्वं यदि जलं स्यात् द्रवत्वं केवलं किञ्चित् समयेन तत्तु सर्वकाले भवति तत्र. किन्तु एतद् अंशः सुवर्णस्य अंशः तत्र केवलम् अत्यन्त अनिलसंयोगेन एव तत्र द्रवत्वं भवति. अतः तस्य द्रवत्वस्य निमित्तकारणम् अस्ति, किन्तु जलस्य तादृशः कारणं नास्ति. तत् सर्वदा तत्र द्रवत्वं भवति इति कृत्वा तत् जलं नास्ति इति स्वीकरणीयः भवति.
सत्यम्.
अपि तत्र एतद् द्रवद्रव्यान्तरस्य रूपमपि अस्ति इति कृत्वा, पीतरूपम् अस्ति इति कृत्वा, तत् वायु वा आकाशः वा एतद् तादृशं द्रव्यं न भवति. अतः यद् अवशिष्टं भागम् अस्ति द्रव्यमस्ति तद् केवलं तैजसः. अतः तद् अंशः तैजसः इति स्वीकरणीयः भवति.
सम्यक् एव अस्ति प्रचिन्तनं, परन्तु अत्र किञ्चिदिव इतोपि चिन्तनं करणीयम्. अत्र ग्रन्थे न उक्तं रूपवत्तया वायवादिषु अनन्तर्भावाद् इति वदति, परन्तु यत् तत्र पीतः वर्णः, पीतं यत् रूपं तत्तु पार्थिवभागस्य रूपं, परन्तु अत्र रूपवत्तया इति वदति. तर्हि किं तत्र ग्रन्थकारस्य का आशयः इत्युक्ते, तत्र तेजसः रूपं किं भवति इत्युक्ते भास्वरशुक्लरूपं. तत्र भास्वरत्वं किं नाम भास्वरत्वम् इत्युक्ते परप्रकाशकत्वमेव भास्वरत्वं. परन्तु अत्र किं चिन्तनमित्रे नैयायिकाः किं वदन्ति इत्युक्ते, सुवर्णे किञ्चित् तादृशपरप्रकाशकत्वम् अस्ति, तदेव रूपम् इदानीं चिन्तनं करणीयम् इति नैयायिकानां चिन्तनम्. तत्र अन्यदपि अन्यः अपि तर्कः अस्ति, परन्तु तावत्पर्यन्तं न गच्छामः. इदानीं तदेव सामान्यरूपेण तदेव चिन्तनं कुर्मः.
महोदय,
आम्,
एकः सन्देहः. अत्र रूपवत्ता इति यदस्ति तत्तु द्रवद्रव्यस्य रूप द्वितीय अंशस्य रूपविषये खलु?
सत्यमेव, सत्यमेव.
समीचीनं, धन्यवादः.
तैजसत्वसिद्धिः. इदानीं तत् स्वप्रपञ्चम् इदानीं तैजसद्रव्यं सुवर्णम् इत्येता पर्यन्तं वयम् आगतः. परन्तु पुनः प्रश्नः पूर्वपक्षी पृच्छति, वदति तस्य नाम तस्य तेजोभागस्य उष्णस्पर्शभास्वररूपयो उपस्तम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः. नाम तर्हि यदि तैजसं द्रव्यम् अस्ति चेत् तत्र उष्णस्पर्शः तस्य उष्णस्पर्शभास्वर रूपयो उपस्तम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धात् अनुपलब्धिः. तर्हि तत्र स्पर्शः उष्णस्पर्शस्य तत्र तैजस उष्णस्पर्शस्य किमर्थम् अनुभवः न भवति, भास्वर रूपस्य किमर्थं तत्र अनुभवः न भवति? उष्ण स्पर्शस्य अनुभवस्तु अस्ति एव, अत्र किञ्चित् चिन्तनं करणीयं, परन्तु तत्र पृथ्वीभागस्य उष्णस्पर्शस्य अनुभवः भवति इति वदति. तर्हि पृथ्वीभागस्य आधिक्यात् तत्र तेन तत्र अभिभूतः भवति उष्णस्पर्शः, भास्वरशुक्लरूपमपि अभिभूतं भवति इति कृत्वा उपलब्धिः न भवति, न अनुभूयते इति वदति. तस्मात् सुवर्णं तैजसम् इति सिद्धम्. इदानीम् आन्द्रे महोदय किञ्चित् तत्र समग्ररूपेण किञ्चित् अत्र वदति वा, अत्र कथं पार्थिवत्वं तत्र सुवर्णस्य पार्थिवत्वमतस्य निराकरणं कथं कृतं, तदनन्तरं सुवर्णे भागद्वयं वर्तते इति कथं सिद्धं, तदनन्तरं द्वितीयभागस्य तैजसत्वं कथं स्थापितम् इति किञ्चित् विवरणं करोति वा?
प्रयत्नं करोमि भो. इदानीं तत्र अंशत्रयं वा प्रथमतः पार्थिवद्रव्यत्वनिराकरणं, सुवर्णस्य पार्थिवद्रव्यत्वनिराकरणं तत् कृते तु तत्र तत्र किं भवति, तत्र वस्तुतः तत्र सः प्रथमः अंशः आसीत्. इदानीं तत्र कार्यकारणभावः कश्चन प्रदर्शितः, यथा घृतस्य अत्यन्तानवसंयोगे तत्र तस्य द्रवत्वं यथा नश्यति, तथापि सर्वेषां पार्थिवद्रव्याणां सा सिद्धिः स्यात्. इदानीं भवतु, परन्तु तथा तु न, तत्र तस्मिन् कार्यकारणभावे कस्य किञ्चन अन्यद्दानम् अपि अपेक्षितं, नाम तत्र प्रतिबन्धकभावे सति अत्यन्तानवसंयोगः एव द्रवत्वकारणं भवतु. तत्तु सुवर्ण तत्तु एवम् इदानीम् एवं कारणं स्वीकृत्य तत्र सुवर्णं परिशीलयामः तत्र पश्यामः एव, तत्र अत्यन्तानलसंयोगः अस्ति, प्रतिबन्धकभावः इव तत्र दृश्यते, अत एव पार्थिवं द्रव्यं सुवर्णः इति सुवर्णम् इति. तत्तु न, यतोहि किमस्ति, न
सत्यमेव उक्तं, सत्यमेव उक्तम्, अत्यन्तानलसंयोगे तत्र द्रवत्वस्य उच्छेदः न जायते.
परन्तु ओके, इदानीं भवतु, द्रवत्वस्य उच्छेदः न जायते इति कृत्वा तर्हि प्रतिबन्धकः कश्चन अन्येन सिद्धः भवति. इदानीं भवतु, इदानीं प्रतिबन्धकः भवति इति चेत् इदानीं प्रतिबन्धः भवति चेत् प्रतिबन्धक इतः प्राक् अपि पीतत्वम् अस्माभिः प्रचीयते, पीतत्वं प्रचीयते इति चेत् तर्हि पार्थिवः भागः अथवा पार्थिवत्वम् अस्ति एव सुवर्णे इत्यपि सिद्धं भवति. इदानीं पार्थिवत्वे सति तत्र पार्थिवत्वे सति अत्यन्तानलसंयोगे सचि अपि, यतोहि यद्द्रव्यत्वच्छेदः न संसिद्ध्यति अत्र, अतः एव अन्यत् किञ्चन द्रव्यान्तरं
वर्तते,
प्रतिबन्धकरूपं वर्तते इति सिद्ध्यति.
ओके,
इदानीं तत्र पश्यामः इति चेत् द्रवद्रव्यान्तरं किम्, ओके, तथा जलादीनि द्रव्याणि तत्र सन्ति, जलं पश्य तत्र जलं प्रति तत्र नैमित्तिकद्रवत्वम् अस्माभिः दृश्यते, तत्तु जले नास्ति, जले तु सांसिद्धिकं द्रवत्वं
एव
जलामचिन. इदानीं वायुवारभ्य यानि द्रव्याणि अत्र उपस्थापितानि तेषु सर्वेषु रूपत्वं नास्ति, रूपवत्वं न रूपं तत्र नास्ति, अत एव तानि अपि तत्र न स्युः, अत एव तेजः इत्येवं तत्र अत एव तैजसं द्रवत्वम् अत्र अस्ति इति तावत्. इदानीं तु अन्यः कश्चन तत्र किम् अन्यत् किञ्चन चोदनं
तत्र किञ्चिदिव मया प्रमादवशात् किञ्चित् तत्र दोषपूर्णः उक्तः तत्र इदानीं तत्र द्रवीभूतस्य उष्णसुवर्णस्य इदानीं विषयः नास्ति. इदानीं सामान्यरूपेण यत् सुवर्ण खण्डं पश्यति, सुवर्णखण्डः भवतः पुरतः अस्ति, तत्र उष्णस्पर्शः नास्ति, भास्वरशुक्लरूपमपि नास्ति. तत्र का कथा इत्युक्ते तत्र पार्थिवभागस्य एवं तेन तत्र प्रतिबन्धः जायते, अतः न अनुभूयते इति वदति. तस्मात् सुवर्णं तैजसम् इति सिद्धम् अस्तु. अग्रे सरामः इदानीम्
क्षम्यतां महोदय, तत्रापि एकः प्रश्नः. इदानीं सुवर्णे भागद्वयं वर्तते, एकं तु पार्थिवं, द्वितीयं तु तैजसम् इति साधितं, किन्तु मिलित्वा तस्य तैजसम् इति स्वीकृतं वा?
न मिलित्वा न स्वीकृतं, तत्र तैजसभागः अस्ति इत्येव चिन्तनम्.
ओ, सुवर्णस्य यत् तैजसभागः अस्ति तदेव तैजसं.
सत्यं, तेन उपचारः नाम तत्र उपचारः क्रियते नाम आरोप्यते. पृथिव्यामपि सुवर्णत्वम् आरोप्यते, वस्तुतः नास्ति.
अस्तु महोदय,
व्यवहारः अन्यप्रश्नः.
हा, जले यथा गन्धः अनुभूयते पृथिवी संयोगात् तद्वदेव सुवर्णे अपि किमपि अन्यगुणाः अनुभूयते इति
अत्र आम् अत्र किम् उक्तम् इत्युक्ते अत्र अन्यगुणः तत्र पार्थिवगुणाः सन्ति. सत्यमेव उक्तं भवत्या, तत्र पार्थिवरूपस्य एव तत्र वाहनं भवति उदाहरणरूपेण. अत्र सुवर्णं वयं तत्र पीतद्रव्यं वदामः, कुतः इत्युक्ते तत्र पार्थिवभागस्य गुण आधिक्यात् तेन भास्वरत्वम् अभिभूतं भवति. सुवर्णस्य एव गुणाः वयं पश्यामः, अनुभवामः. तत्तु सत्यमेव. तदेव
महोदय, तत्र यत् उदाहरणं रक्षाभगिन्या उक्तं, तत्र तु गुणः मिश्रितमस्ति जले, गन्धवत्वम् इति गुणः, अत्र तु द्रव्यमेव मिश्रितमस्ति.
सत्यमेव. तत्र जले अपि पृथिवीत्वादयः सन्ति इति कृत्वा गन्धस्य इदानीं कथम् अनुभवः इत्युक्ते तत्र पृथिवीद्रव्यमस्ति जले इति कृत्वा इदानीं स्वसंयुक्तत्व इत्यादिकम् आदाय वयं गन्धः तत्र अस्ति इति वदामः. अत्रापि तथा वक्तुं शक्यते.
सत्यं महोदय. आम्
अस्तु, तस्मात् सुवर्णं तैजसम् इति सिद्धम्. इदानीं विजया भगिनी तत्र पठति वा, तत्र तर्कसङ्ग्रहमूले इदानीं एकत्रिंशतितमे पुटे तत्र रूपरहित स्पर्शवान् वायुः इति आरभ्य पठति वा?
पठामि जि.
आं तर्हि पठतु तर्हि.
रूपरहितस्पर्शवान् वायुः सः द्विधः, नित्य अनित्यः च. नित्यः परमाणुरूपः, अनित्यः कार्यरूपः इति द्विधं तत्र सन्ति. रूपरहितस्पर्शवान् इत्युक्ते तत्र रूपरहित तत्र वायुः स्पर्शमेव वयं जानीमः, तत्र वायुः रूपं नास्ति इति तत्र अस्ति. एतदपि द्विविधम् अस्ति, एतत् नित्यमस्ति अनन्तरम् अनित्यम् इति द्विविधं सन्ति. तत्र नित्यः परमाणुः, अनित्यः इति कार्यरूपेण अस्ति तत्र. पुनः त्रिविधः शरीर इन्द्रिय विषय भेदात् शरीरम् इन्द्रियं विषयम् इति त्रिविधं तत्र सन्ति. शरीरं वायुर्लोके अस्ति, इन्द्रियं स्पर्श ग्राह्यत्वस्थ सर्वशरीरवात् पुनः त्रिविधः सन्ति इत्युक्ते कार्यरूपेण त्रिविधः तत्र सन्ति, शरीरम् इन्द्रियं विषयम् इति भेदात्. शरीरम् इति कुत्र अस्ति चेत् वायुलोके अस्ति, इन्द्रियं स्पर्श ग्राह्यत्वात् वयं जानीमः शरीरे सर्वशरीरत्वात् विषयो वृक्षादकृपणहेतुः विषयः तत्र किमस्ति चेत् वृक्षं वृक्ष अधिककम्पत्वात् वृक्षं चलनमस्ति तत्र एतदेव कम्पनं चलनम् इति रूपेण विषयः वयं जानीमः शरीर अन्तः सञ्चारी वायुः प्राणः शरीरं किमर्थं वयं जानीमः चेत् तत्र सञ्चारी तत्र चलनमस्ति अनन्तरं वायुः प्राणः शरीरे प्राणः अपि अस्ति पञ्चप्राणः दशप्राणः इति सन्ति तत्र एतत् वयं जानीमः शरीरे किम् अस्ति इति स च एको प्यूप अधिभेदात् प्राण प्राण अपान अधिसंज्ञा लभते प्राण अपान इति रूपेण तत्र शरीरे कार्यं भवति इति अहं मया प्राप्तं चेत् एतदेव
आमां सर् धन्यवादः तत्र अस्तु पुनरेकवारं पठामि रूपरहितः स्पर्शवान् वायुः नाम तत्र कीदृशः स्पर्शः वायुः अस्ति इति प्रश्नः इत्युक्ते रूपरहित नाम विशिष्टस्पर्शः वायुः अस्ति कुतः इति तत्र अन्यत्रापि स्पर्शः वर्तते तर्हि अन्येभ्यः व्यावर्तनीयः तर्हि रूपरहितत्वविशिष्टस्पर्श वायुः अस्ति इति अर्थः रूप अभावविशिष्टस्पर्शः वायुः अस्ति इति अर्थः स द्विविधः नित्यो अनित्यश्च नित्यः परमाणुरूपः अनित्यः कार्यरूपः एतत् सर्वं वयं जानीमः पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् यथा पूर्वं कृतं शरीरं वायुलोके इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति त्वक् कुत्र वर्तते इत्युक्ते तत्र सर्वत्र वर्तते शरीरे इति सर्वशरीरवर्ति विषयो वृक्षादिकम्पनहेतुः तत्र इन्द्रियशरीरभिन्नं भिन्नः वायुः विषयरूपवायुः विषयः वृक्षादि किं करोति इत्युक्ते वृक्षादिकम्पनहेतुः वायुः तत् सामान्यरूपेण दृश्यते कुत्र भवति अत्र प्राणः पुनः अपि विषयः विषयः एव प्राणः अपि परन्तु प्राणः कीदृशः इत्युक्ते शरीरान्तः सञ्चारी वायुः कीदृशः वायुः प्राणसंज्ञां भजति इत्युक्ते शरीर अन्तः सञ्चारी वायुः तादृशवायुः प्राणवायुः एक एव स च एक परन्तु उपाधिभेदात् प्राण अपादिसंज्ञां लभते वस्तुतस्तु एक एव वायुः परन्तु स्थान उपाधिनाम अत्र स्थानम् इति अर्थः स्थानभेदात् प्राण अपान किं किमस्ति प्राण अपान ध्यान उदान
समान
पञ्चवायवः आं सत्यम् अस्तु उपाधिभेदः अत्र उपाधि अत्र नाम स्थानम् इति अर्थः उपाधि इति पदस्य तत्र उपाधिनाम धर्मः अपि भवति उपाधिनाम अत्र स्थानम् इति अर्थः उपाधि तत्र अनुमानप्रकरणे तत्र भयावह तत्र विषयः अस्ति नाम तत्र किञ्चिदिव विनोदार्थमेव वदामि तत्र सम्यक् रूपेण अनुमानखण्डे एव तस्य अध्ययनं भवति परन्तु उपाधियत्री महान् विषयः तत्र अनुमानखण्डे कश्चन पण्डितः वाराणसीं गतवान् तत्र न्यायशास्त्रस्य अध्ययनार्थं वाराणसीं गतवान् तत्र बहु समयः यापितः तस्य अध्ययन अवसरे परन्तु सम्यक् ज्ञानं न जातं न्यायशास्त्रस्य इति कृत्वा सः एकं श्लोकम् उक्तवान् किम् उक्तवान् इत्युक्ते उपाधि तु महाव्याधि पक्षता प्राणघातिनी इति उक्तवान् तत्र उपाधिप्रकरणं तत्र भयोत्पादकमस्ति तत्त्वचिन्तामणिग्रन्थे उपाधिप्रकरणं यत् अस्ति तत् भयोत्पादकं तत्र शिरोवेदना उपाधिस्तु महाव्याधि पुनः ततोपि तत्र क्लिष्टवस्तु वर्तते पक्षता अनुमानखण्डिभ्यः आयाति पक्षता प्राणघातिनी ततोपि क्लिष्टः वर्तते प्रामाण्यवादः नमो प्रामाण्यवादाय मत्कवित्वापहारिः इति उक्तवान् मत्कवित्वं नाम बुद्धिः अत्र अत्र धनमपि भवति एतत् सर्वस्य हरणं जातं मम बुद्धेः अपि धनस्यापि व्ययः जातः इति उक्तवान् इति कश्चन विनोदावहः विषयः इदानीं
महोदय यत्र कुत्रापि विषयः विषयः इति एकः एकं विभागं वदन्ति खलु सर्वे ग्रन्थेषु तत्र विषयः इत्यस्य ज्ञानस्य विषयः इति अर्थः वा
न तत्र ज्ञानस्य विषयः न तादृश अर्थः नास्ति अत्र किम् उक्तम् इत्युक्ते तत्र भोगसाधनत्वम् एव उक्तम् अत्र विषयस्य को अर्थः कृतः इत्युक्ते शरीरेन्द्रियभिन्नत्वे सति भोगसाधनत्वम् एव तत्र विषयत्वम् इति उक्तं तत्र न्यायबोधिन्यामेव अस्ति भगिनी कुत्रापि एवम् अत्र तत्र एकविंशतितमे पुटे पश्यन्ति चेत् तत्र अन्तिमपरिच्छेदे अस्ति शरीरेन्द्रियभिन्नत्वे सति उपभोगसाधनं विषयः इति
अस्तु पश्यामि महोदय पृष्टवती यतोहि वृक्षादिकम्पनहेतुः कम्पनं दृष्ट्वा वयं जानीमः तत्र अस्तु वायुः अस्ति इति खलु
तत्र अस्ति इति सः शरीरेन्द्रियभिन्नं भिन्नः वायुः तत्र अस्ति सः वायुः विषयः इति एवम्
अस्तु
अनुमीयते कुतः इति चेत् वायोः द्रव्यप्रत्यक्षं न भवति इति अनन्तरम् आगच्छति तत्र वायोः द्रव्यप्रत्यक्षं न भवति वायुः द्रव्यमस्ति इति अनुमीयते अनुमीयते मानस्य प्रकाराः बहवः सन्ति तत्र द्रव्य वृक्षस्य कम्पनं जातं तर्हि कम्पनहेतुः कश्चन अस्ति वायुः अस्ति इति कृत्वा को तादृशवायुः विषयः भोः इति वदति ग्रन्थकारः अस्तु तर्हि तत्र अग्रे सरामः चिन्तयामः पश्यामः इदानीं दीपिकां पश्यामः तर्हि वायुं निरूपयति आकाशादौ अतिव्याप्तिवारणाय स्पर्शवान् पृथिवीद्यादौ अतिव्याप्तिकारणाय रूपरहित इति इदानीं नाम तत्र रूपरहितत्वे सति नाम रूपरहितस्पर्शवान् वायुः इति उक्तं तर्हि तत्र स्पर्शवान् तत्र केवलं रूपरहितं राहित्यमेव वायुर्लक्षणं रूपाभावः वायोः लक्षणं केवलं तावन्मात्रलक्षणं कृते किं भवति इत्युक्ते रूप अभाववत्त्वम् आकाशे अपि वर्तते अतः आकाशे अतिव्याप्तिः भवति आकाशस्तु न वायुः तत्र अतिव्याप्तिः भवति इति कृत्वा स्पर्शवान् इति उक्तं स्पर्शवान् इति पदनिवेशे तु आकाशे स्पर्शः नास्ति इति कृत्वा रूपरहितत्व रूप अभाव आकाशे सत्यपि स्पर्शवत्त्व अभावात् इदानीम् आकाशे अतिव्याप्तं न भवति इत्यर्थः पुनः पृथिव्यादौ अतिव्याप्तिवारणाय रूपरहित पुनः तत्र केवलं स्पर्शवत्त्वं वायोः लक्षणम् इत्येतावन् मात्र उक्तौ स्पर्शस्तु पृथिव्यादौ वर्तते पृथिव्यामपि वर्तते जले अपि वर्तते इति कृत्वा तत्र अतिव्याप्तिः भवति इति कृत्वा रूपरहितम् इति उक्तं रूपरहितम् इति पदनिवेशे किं भवति इत्युक्ते पृथिव्यादौ रूपम् अस्ति एव तर्हि तत्र अतिव्याप्तिः न भवति इति दलसार्थस्य चिन्तनम् अस्तु इदानीं किञ्चिदिव अग्रे सरामः तत्र पुनः पठामः ननु प्राणस्य कुत्र अन्तर्भावः पूर्वपक्षी पृच्छति प्राणस्य कुत्र अन्तर्भावः इति पृच्छति चेत् तत्र इत्यतः शरीरेति नाम तत्र शरीर इति शरीर अन्तः सञ्चारी इति उक्तं खलु तत्र कदाचित् भ्रान्तिः भवति अत्र प्राणः शरीरमिति उक्तं वा किं किं वदति ग्रन्थकारः कदाचित् भ्रान्तिः भवति परन्तु किं वक्तुम् इच्छति इत्युक्ते शरीर अन्तःसञ्चारी इति तत्र इति उक्तं वायुः प्राणः शरीरेन्द्रियविषयभेदात् पुनस्त्रिविधः एकनिमिषं प्राणस्य पुनर्विधः करोति सचेति सच एक एव प्राण आम् एवं सत्यमेव शरीरान्तःसञ्चारी तत्र अन्त वायुः विषये एव अन्तर्भावः कुतः इति तत्र शरीरान्तसञ्चारी वायुः प्राणः इति उक्तं शरीरान्तः सञ्चारी वायुः प्राणः इति परन्तु कुत्र उक्तम् इत्युक्ते यत्र विषयस्य चर्चा जाता तत्र उक्तम् अत्र विषयो वृक्षादिकम्पनहेतुः इति उक्तं तत् समनन्तरमेव शरीरान्तः सञ्चारी वायुः प्राणः इति उक्तत्वात् तर्हि तत्र विषयचर्चायाः तत्र सान्निध्यम् अस्ति इति कृत्वा तत्र प्राणः अपि विषयः इति ग्रन्थकारस्य आशयः इति शरीरान्तः तस्य एव भागः शरीरेति इति अत्र स्वीकृतः स चेति तदनन्तरम् एव उक्तं स च एको अपि उपाधिभेदात् प्राणापानादिसंज्ञां लभते इति उक्तं तदेव अत्र वदति स चेति एक एव प्राणः स्थानभेदात् प्राणापानादिशब्दैर्व्यवह्रियते नाम शब्दप्रयोगः भवति तादृशः इति वदति इत्येतावत्पर्यन्तम् इदानीं सुगमनं महोदय इति आकाशादौ अतिव्याप्तिवारणा इत्येतावत् इति आरभ्य शब्दैर्व्यवह्रियत इत्यर्थ इत्येतावत्पर्यन्तं किञ्चिदिव शीघ्रं विवरणं करोति वा?
तत्र रूपरहितत्वे सति स्पर्शवान् वायुः इति लक्षितं तत्र दलद्वयं वर्तते. रूपरहितं किमर्थम् इति दलं योजितं केवलं रूपरहितत्वम् इति दलमेव स्वीकुर्मश्चेत् तत्र आकाशादौ अतिव्याप्तिः भवति, आकाशे अपि अतिव्याप्तिः भवति इति कृत्वा तत्र स्पर्शत्वम् अपि योजितं. किमर्थम् इत्युक्ते आकाशे स्पर्शत्वं न दृश्यते इति कृत्वा तत्र अतिव्याप्तिः वारणाय रूपरहि स्पर्शत्वम् इति योजितं, दलं योजितं. केवलं स्पर्शत्वं स्पर्शवान् इति दलमेव स्वीकुर्मश्चेत् तत्र पृथिव्यादौ स्पर्शत्वं वर्तते, पृथिवी जले तैजसि अपि स्पर्शत्वं वर्तते इति कृत्वा तेषु अतिव्याप्तिः भवति इति कृत्वा तद्वारणाय रूपरहितत्वम् इति दलं योजितम्. अतः रूपरहितत्वे सति स्पर्शवान् वायुः इति लक्षणं सम्यक् भवति इति.
सत्यमेव. तत्र किञ्चिदिव तत्र स्पर्शवत्वम् इति भवतः आशयः आसीत्, स्पर्शत्वम् इति उक्तं स्पर्शवत्वं.
क्षम्यतां, स्पर्शवत्वं. तत्र महोदय एकः सामान्यप्रश्नः अस्ति. इदानीं यत्र यत्र लक्षणं वयं पश्यामः तत्र दलद्वयं वा ततोपि अधिकं वा अस्ति चेत् अनयोः मध्ये सर्वदा विशेषणविशेष्यभावः स्वीकर्तव्यः इति वा?
तथैव चिन्तनं, मम अवगमनं तथैव अस्ति
महोदय.
अपि च यत्र यत्र तत्र स्पर्शवान् रूपरहित वान् इति अस्ति तत्र जातिः एव स्वीकर्तव्यम् इत्यपि अस्ति किल, रूपरहितत्वं स्पर्शवत्वम् इति.
तत्र तत्र रूपरहितत्वं नाम रूपाभावः, तर्हि रूपाभावः भवति चेत् तत्र तत्र जातिः न, रूपाभावविशिष्ट स्पर्शः इति अर्थः. रूपाभावस्य यत् अधिकरणं तस्मिन् अधिकरणे स्पर्शः अपि अस्ति खलु. स्पर्शः कुत्र अस्ति? वायौ अस्ति, वायुरूपाभावोऽपि वर्तते, तस्मिन्नेव अधिकरणे स्पर्शोऽपि वर्तते. तर्हि द्वयोः सामानाधिकरण्यं सम्बन्धः, तर्हि सामानाधिकरणीयसम्बन्धेन तत्र रूपाभावः स्पर्शे भवति. विशेषणविशेष्य भावः तथा चिन्तनं कर्तुं शक्यते.
किन्तु यदा वयं लक्षणं कुर्मः तदा सर्वदा जाति एव स्वीकृत्य वक्तव्यं वा इति मम प्रश्नः. किमर्थम् इत्युक्ते नो चेत् व्यक्तौ आपतति इति.
न न, तादृशः निर्बन्धः नास्ति. अस्माभिः दृष्टं खलु, अस्माभिः तत्र इन्द्रियस्य लक्षणं यदा कृतं तत्र जातिघटितं लक्षणं न कृतं. जाति इन्द्रियत्वं न जातिः इति कृत्वा इदानीं शब्दे तरु भूतविशेषगुण अनाश्रयत्वे सति इति अनाश्रयत्वम् इति न जाति.
ओ
ज्ञान एवं तथा सर्वथैव तथा न आवश्यकता अस्ति. परन्तु यदा अस्माभिः तत्र पृथिव्याः लक्षणं कृतं तत्र तु किं कृतम् इत्युक्ते गन्धसमानाधिकरणद्रव्यत्व अपरजातिमत्वं तत्र जातिघटितं लक्षणं कृतं. सर्वदैव तथा करणीयमिति निर्बन्धः
नास्ति.
महोदय, अत्र दलद्वयम् अस्ति इति चेत् एकं विशेषणम् अपरं विशेषदलं, तत्र परिवर्तनमपि शक्यं खलु?
तत्र परिवर्तितं परिवर्तनमपि कर्तुं शक्यते इति मन्ये, परन्तु तत्र किञ्चिदिव प्राधान्यं कस्य भवति इत्येतावत् चिन्तनं. तत्र मम चिन्तनं तु अस्ति परिवर्तनमपि कर्तुं शक्यते. कुतः इत्युक्ते तत्र सामानाधिकरण्यं भवति चेत् सामानाधिकरण्यं वृत्तिनियामकः सम्बन्धः न, तर्हि अभावः स्पर्शे स्पर्शः अभावे इति सामानाधिकरण्यसम्बन्धेन वक्तुं शक्यते.
तथा सर्वत्रापि इन्द्रियत्वं यत्र कुत्रापि किञ्चित् विशेषणविशेष्ययोः मध्ये कर्तुं
तथा भाति तथैव मम चिन्तनम् अस्ति इति किञ्चित् चिन्तनं करणीयं परन्तु मम चिन्तनं तथा अस्ति.
अस्तु महोदय.
अस्तु अग्रे सरामः. स्पर्शानुमेयो वायुः स्पर्शानुमेयो वायुः अत्र स्पष्टमुक्तं वायुः अनुमेयः पदार्थः अनुमेयः द्रव्यं तत्र नाम तस्य आशयः कः इत्युक्ते वायुः प्रत्यक्षं न भवति इति आशयः. वायुः अनुमेयः अनुमानप्रमाणद्वारा एव वायुद्रव्यमस्ति इति ज्ञायते प्रत्यक्षं न ज्ञायते. वायोः द्रव्यप्रत्यक्षं न भवति इति अर्थः. स्पर्शानुमेयो वायुगतः यः स्पर्शः सः स्पर्शस्य तस्य स्पर्शकरणं किमपि स्यात् तादृश अधिकरणमेव वायुः इति अनुमानप्रमाणं तत् तथा हि तदेव स्पष्टं तथा हि नाम पूर्वं यदुक्तं तस्यैव स्पष्टीकरणम् इदानीं तथा हि यो अयं वायौ बाति सति अनुष्णातीतस्पर्शो भासते सः स्पर्शः क्वचिदाश्रितः गुणत्वात् रूपवत्. इदानीम् अनुमानस्य प्रयोगः स्पर्श अनुमेयो वायुः तत्र उक्तं तर्हि अनुमानस्य कीदृशं स्वरूपम् इति प्रश्नः उदेति तदेव इदानीं स्पष्टीकरोति. यो अयम् अयं वायौ बाति सति वायुः यदा बाति तदा अस्माकं शरीरे अनुष्णासितस्पर्शो भासते तस्य भानं भवति तस्य अनुभवः भवति अस्माकं तर्हि स्पर्शस्य अनुभवः भवति स्पर्शः गुणः सः स्पर्शः क्वचिदाश्रितः तस्य कोऽपि आश्रयः भवेत् क्वचिदाश्रितः कुत्रचिदाश्रितः कुत किमर्थम् आश्रितः इति वक्तव्यं तत्र हेतुः कः इत्युक्ते गुणत्वात् स्पर्शः गुणः तर्हि गुणस्य तु सर्वथैव आश्रयः कोऽपि भवत्येव गुणत्वात् उदाहरणं किं रूपवत् वयं जानीमः यत्र यत्र अस्माकं रूपज्ञानं भवति तत्र तत्र अधिकरणं रूपस्य किञ्चित् अस्ति एव वर्तते एव तर्हि तत् उदाहरणं सः स्पर्शः क्वचिदाश्रितः हेतुः कः गुणत्वात् उदाहरणं किं रूपवत्त्वं नाम रूपम् इति उदाहरणं यथा रूपं रूपवतां यथा रूपं रूपस्य आश्रयः भवति तथैव स्पर्शस्यापि आश्रयः भवति कुतः इति चेत् गुणः अस्ति इति इदानीम् आश्रय क्वचिदाश्रितः इत्येतावत्पर्यन्तं प्राप्तम् अस्य अनुमानस्य नाम अनेन अनुमानेन वयं किं प्राप्नुमः इत्युक्ते स्पर्शः क्वचिदाश्रितः स्पर्शस्य आश्रयः कोऽपि अस्ति परन्तु तस्य कुत्र अन्तर्भावः एतावत्पर्यन्तं न जानीमः. यथा पूर्वम् अस्माभिः सुवर्णस्य चर्चा अवसरे दृष्टं प्रथमं किं साधितम् इत्युक्ते द्रवद्रव्यान्तरं वर्तते इति साधितं तदनन्तरं तस्य द्रवद्रव्यान्तरस्य अन्तर्भावः कुत्र अस्ति इति तत्र प्रत्येकं परिशीलनानन्तरं पारिश्यस्यात् तत्र तेजसी अन्तर्भावः कृतः नाम तैजसम् इति स्थापितम्. अत्रापि तथैव तादृशी एव पद्धति. इदानीं किं वदति इत्युक्ते न तस्य पृथिवी आश्रयः न च अस्य पृथिवी आश्रयः नाम भोः स्पर्शः अनुभूतः इदानीम् अहं वदामि पृथिवी एव आश्रयः तत्र का हानिः तत्र कोऽपि आपत्तिः अस्ति वा कापि आपत्तिः अस्ति वा इत्युक्ते तथा वक्तुं न शक्यते. न च अस्य स्पर्शस्य आश्रयः पृथिवी भवितुम् अर्हति. किमर्थं कारणं किम् इत्युक्ते उद्भूतस्पर्शवतः पार्थिवस्य उद्भूतरूपवत्त्वनियमात्. इदानीं हेतुः वदति हेतुः कः इत्युक्ते उद्भूतस्पर्शवतः पार्थिवद्रव्यस्य इदानीं अस्माकम् इदानीं चिन्तनं किं यदा वयं वदामः एषः स्पर्शः पृथिवीनिष्ठः स्पर्शः अथवा अस्य स्पर्शस्य आश्रयः पृथिवी यदा वदामः तत्र तेन किं लब्धं भवति इत्युक्ते सः स्पर्शः अनुभूतः 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 इत्युक्ते उद्भूतः स्पर्शः उद्भूतः स्पर्शः तादृश उद्भूतस्पर्शवती पृथिवी इति वयं वदामः. यदा अस्य स्पर्शस्य आश्रय पृथिवी वदामः तेन किं लभ्यते इत्युक्ते तादृश उद्भूतस्पर्श वति पृथिवी एव आश्रयः इति लभ्यते. परन्तु तत्र समस्या अस्ति. समस्या का इत्युक्ते उद्भूतस्पर्शवतः पार्थिवद्रव्यस्य सर्वदैव उद्भूतरूपवत्त्वनियमः वर्तते. नाम यदि उद्भूतस्पर्शवती पृथिवी अथवा उद्भूतस्पर्शवत् पार्थिवद्रव्यमस्ति चेत् तस्य पार्थिवद्रव्यस्य उद्भूतरूपमपि वर्तते. यदि अस्माकं शरीरे तत्र तादृश उद्भूतस्पर्श अनुभूयते चेत् तत्र तस्मिन् पृथिवी द्रव्ये उद्भूतरूपमपि भवेत् अस्माभिः तदपि द्रष्टुं तस्यापि अनुभवः अस्माकं भवेत्. परन्तु अत्र वायोः विषये किमस्ति इत्युक्ते स्पर्शस्तु तत्र उद्भूतः परन्तु रूपं न दृश्यते. यदि अस्माभिः किमुक्तमासीत् तत्र एतस्य स्पर्शस्य आश्रयः पृथिवी इति उक्तमासीत् तद् वक्तुं न शक्यते. कुतः इति चेत् भवान् तथा वदति चेत् अनेन नियमेन उद्भूतस्पर्शवतः पार्थिवस्य उद्भूतरूपवत्त्वम् इति नियमेन किं लभ्यते इत्युक्ते तत्र रूपमपि स्यात् परन्तु न दृश्यते. अतः पृथिव्यां न अन्तर्भूतः इति वदति इदानीम्. अस्तु, इदानीं सावित्री भगिनी यत्र किञ्चित् वदति वा अत्र अनुमानस्य स्वरूपं कीदृशमस्ति. स्पर्शानन्येव वायुः इति आरभ्य पार्थिवस्य उद्भूतरूपवत्त्वनियमः इति एतावत्पर्यन्तं विवरणं करोति.
अस्तु महोदय, अस्तु, प्रयत्नं करोमि. तथा हि यो अयं वायौ वाति सति अनुष्णाशीतस्पर्शो भासते सः सस्पर्शः क्वचिदाश्रितः गुणत्वात् रूपवत् न चास्य पृथिवी आश्रयः उद्भूतस्पर्शवतः पार्थिवस्योद्भूतरूपवत् इत्युक्ते अत्र आशयः एवम् अस्ति. स्पर्श वायुः तु सर्वदा अनुमीयते एव अनुमानप्रमाणेन एव अवगच्छामः. अनुमेयः पदार्थः साक्षात् द्रव्यप्रत्यक्षं न भवति इति. वाति सति अनुष्णाशीतस्पर्शो भासते सः स्पर्शः इत्युक्ते यदा स्पर्शः भासते वायुना स्पर्शः भासते सः स्पर्शः क्वचिदाश्रितः इति अनुमानं कर्तुं शक्नुमः. किमर्थं चेत् स्पर्शः गुणः एव यथा रूपवत् किमपि रूपम् अस्ति चेत् तस्य आश्रयः भवेत् एव खलु पार्थिवद्रव्यं तथा एव अत्रापि स्पर्शः गुणः तस्य किमपि आश्रयः भवेत् एव इति. यदि वयं वदामः न चास्य पृथिवी आश्रयः यदि सः स्पर्शः पृथिवी आश्रितः इति वदामः चेत् तथा नास्ति. किमर्थं चेत् उद्भूतस्पर्शस्य उद्भूतरूपमपि भवेत् एव परन्तु अत्र रूपस्य उद्भूतरूपं नास्ति वायौ परन्तु स्पर्शः अस्ति.
तदर्थं
पृथिवी आश्रितः स्पर्शः
नास्ति. धन्यवादः. नाम तत्र उद्भूतत्वं नाम प्रत्यक्षयोग्यं प्रत्यक्षयोग्यः नाम प्रत्यक्षम् अस्माभिः ज्ञायते इति उद्भूतत्वं. तर्हि उद्भूतः स्पर्शः अस्माभिः अनुभूतः. परन्तु यदि पार्थिवद्रव्यं स्यात् अपि च पार्थिवद्रव्ये उद्भूतस्पर्श स्यात् तर्हि तदा सर्वदैव उद्भूतरूपवत्त्वमपि स्यात् इति नियमः अस्ति. अत्र वायु उद्भूतरूपं नास्ति इति कृत्वा पृथिवी अस्य स्पर्शस्य आश्रयः भवितुं सर्वथैव नार्हति इति अर्थः. अत्र अनुमानस्य स्वरूपं किञ्चिदिव पुनर्मरणरूपेण सः स्पर्शः क्वचिदाश्रितः गुणत्वादरूपवत् अत्र सर्वदैव मनसि तत्र चिन्तनं करणीयं. पर्वतो बन्निमान् धूमान् इति यथा महानसम् इति वदामः. पर्वतो बन्निमान् धूमान् यथा महानसं तत्र पर्वतपक्षः धूमः हेतुः साध्यं बह्निः रूपत् इति यथा महानसमिति यत्र तत्र व्याप्तिग्रहः जायते महानसे अत्र रूपे अत्र स्पर्शः पक्षः क्वचिदाश्रितत्वं साध्यं स्पर्शे क्वचिदाश्रितत्वं वर्तते इति क्वचिदाश्रितत्वं साध्यं हेतुः गुणत्वम् उदाहरणम् इदानीं तत्र कुत्र तादृशः व्याप्तिग्रहः जातः यत्र यत्र गुणत्वं तत्र तत्र क्वचिदाश्रितत्वम् इति व्याप्तिग्रहः रूपे जातः यथा महानसे धूम अग्नि वद्योः साहचर्यज्ञानं व्याप्तिग्रहः जातं तथा अत्र रूपे जातम् इति अर्थः किञ्चिदिव तादृशं चिन्तनं करणीयम् न च अस्य पृथिवी आश्रयः तावत्पर्यन्तम् अस्माभिः परिशीलितम् इदानीं न जलतेजसि अनुष्णासीतत्वा इति सरलमेव जलमपि भवितुं नार्हति तत्र कुतः इति चेत् जलस्य शीतस्पर्शः तेजसः उष्णस्पर्शः वायोः अनुष्णासितस्पर्शः अतः न जलमपि तस्य आश्रयः भवितुम् अर्हति तेजः अपि तस्य आश्रयः भवितुम् अर्हति पुनः न विभुचतुष्टयं तत्र विभुद्रव्याणि सन्ति तत्र कालदिगात्म आकाशः तत्रापि न भवति कुतः इत्येत् यदि विभुः भवति चेत् सर्वत्र उपलब्धिः भवति परन्तु अस्माकम् अनुभवः अस्ति वायुः सर्वत्रैव सर्वदा अस्ति इति स्पर्शः ज्ञानं न जायते अस्माकम् इति नैयायिकानां चिन्तनम् अतः सर्वत्र उपलब्धिः यदि वायुः विभुद्रव्यं वदामः चेत् सर्वत्र उपलब्धिः नाम ज्ञानम् उपलब्धिः भवेत् परन्तु तत् न भवति इति कृत्वा विभुचतुष्टये अपि अन्तर्भावः तस्य कर्तुं न शक्यते अपि च न मनः अपि न कुतः चेत् मनसः परमाणुस्पर्शस्य अतीन्द्रियत्वा परमाणुगतस्य स्पर्शस्य तर्हि इन्द्रियलभ्यं न भवति नाम इन्द्रियगम्यं न भवति इन्द्रियेण तस्य ज्ञानं प्राप्तुं न शक्यते इति अर्थः परमाणुस्पर्शस्य अतीन्द्रियत्वा तस्मात् यः प्रतीयमानस्पर्शाश्रयः पारिसे स्यात् पुनः वायुः एव अवशिष्यते अतः सः अनुभूयमानः ज्ञायमानः स्पर्शस्य आश्रयः वायुः एव इति पर्यवसन्नं भवति अस्तु तर्हि अनेन अत्र विरमामः परन्तु अत्र एषः अस्य पर्यायस्य अन्तिमवर्गः तर्हि तत्र सर्वेभ्यः धन्यवादः अग्रिमे वर्षे पुनः अवसरः प्राप्यते चेत् पुनः अनुवर्तनं कुर्मः परन्तु अस्य पर्यायस्य एषः प्रायः अन्तिमः वर्गः एव स्यात् अनेन विरमामः सर्वेभ्यः धन्यवादः नमस्कारः
धन्यवादः।